सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं कुर्मः. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. तिङ् प्रत्ययानां सिद्धिः द्वितीयभागः इति पाठः पूर्वमेव आरब्धः, किन्तु पाठः न समापितः, पाठस्य आरम्भः जातः. पूर्वतनेषु वर्गेषु लटि तिङ्प्रत्ययानां सिद्धिः, लोटि तिङ्प्रत्ययानां सिद्धिः च कथं भवति इति वयं ज्ञातवन्तः. अद्यतनवर्गे अदन्त अङ्गेषु लङ् लकारे सिद्धतिङ्प्रत्ययानां निर्माणं कथं भवति इति एकवारं पश्याम. लङ् लकारप्रसङ्गे तिङ् प्रत्ययानां निर्माणावसरे आवश्यकानि तत्सम्बद्धानि सूत्राणि एकवारं परिशीलयाम. लङ् लकारप्रसङ्गे त्रीणि विशिष्टानि सूत्राणि सन्ति, इत्युक्ते नित्सु लकारेषु इमानि त्रीणि सूत्राणि कार्यं कुर्वन्ति. इतश्च तस्थस्थमिपां तान्तन्तामः नित्यं नितः, इमानि त्रीणि सूत्राणि नित् लकारविशिष्टानि सूत्राणि. पूर्वस्मिन् वर्गे एव वयम् एतेषां त्रयाणां प्रसङ्गे किञ्चित् पठितवन्तः. किमर्थं चेत् पूर्वतने वर्गे वयं लोटि प्रसङ्गे चर्चां कृतवन्तः. लोटो लङ्वत् इति अतिदेशसूत्रेण लोट् लकारप्रत्ययाः लङ्वत् प्रवर्तन्ते इति वयं ज्ञातवन्तः. तस्मिन् अवसरे इतश्च तस्थसमीपां तान्तन्तामः नित्यं नितः इत्यादीनि सूत्राणि वयं दृष्टवन्तः. अद्यापि लङ् लकारप्रसङ्गे अपि इमानि त्रीणि सूत्राणि द्रष्टव्यानि, इत्युक्ते इमानि सूत्राणि नित् लकारविशिष्टानि सूत्राणि. अतः एतेषां त्रयाणां सूत्राणां पुनरवलोकनं भवति अद्य. इतश्च तस्थस्थमिपां तान्तन्तामः नित्यं नितः. इदानीं करपत्रं पश्यन्तु. करपत्रम् अस्ति तिङ् प्रत्ययानां सिद्धिः द्वितीयभागः इति लिखितमस्ति. तत्र तर्हि नियमान् अनुसृत्य कार्यम् एवं भवति इति तत्र लिखितमस्ति. नीलं भगिनी, भवती एकवारं पठतु, पुनरवलोकनं भवति. तर्हि नियमान् अनुसृत्य कार्यम् एवम् इति लिखितमस्ति.
तर्हि नियमान् अनुसृत्य कार्यम् एवं. तिप् पकारलोपः, ति अनन्तरम् ईलोपः, अनन्तरं त इति लङ् प्रत्ययः निष्पन्नः. प्रथमपुरुष परस्मैपदेषु तत्र प्रथमपुरुष यः तिप् प्रत्ययः एकवचने प्रत्ययः, तत्र पकारस्य लोपः अनन्तरम् इकारस्य अपि लोपः. इतश्च इत्यनेन नित् अस्ति, लकारः नित् अस्ति, अतः इतश्च इत्यनेन इकारस्य अपि लोपः. अवशिष्टभागः केवलं तकारः, तदेव अस्ति सिद्धितिङ् प्रत्ययः लङ्लकारे. अनन्तरं तत्र ताम् आदेशः, ताम् आदेशः इत्यनेन ताम् इति लङ् प्रत्ययः निष्पन्नः. केवलं प्रत्यादेशः अस्ति प्रथमपुरुषद्विवचनप्रत्ययस्य तस् प्रत्ययस्य कृते. तस्थस्थमिपां तां तं तामः इत्यनेन तत्र तस् स्थाने ताम् आदेशः, तदेव सिद्धितिङ् प्रत्ययः लङ्लकारे. अनन्तरं झि इति झक तत्र झ स्था झ स्थाने तत्र अन्तादेशः, अन्तयोग इ अन्ति, अनन्तरं पुनः तत्र इतश्च इत्यनेन लङ्लकारः नित् अस्ति, अतः इ लोपः अपि अस्ति. अन्ततो गत्वा तत्र अन्त इति सिद्धितिङ् प्रत्ययः, सिद्धितिङ् प्रत्ययः नास्ति. अन्त तस्मात् अनन्तरं तकारस्य संयोगान्तः लोपः इत्यनेन सूत्रेण तकारस्य पुनः लोपः. अत्र संयोगः अस्ति नकारतकारयोः, तत्र संयोगः, अतः संयोगान्तस्य लोपः इत्यनेन तत्र तकारस्य लोपः. अन् इति लङ् प्रत्ययः, अन् इति तत्र लङ्लकारे तत्र सिद्धितिङ् प्रत्ययः. अग्रे तत्र मध्यमपुरुष एकवचने सिप् इति प्रत्ययः, तत्र पकारस्य इत्संज्ञा सि इति, सि इति पुनः इकारस्य लोपः, नित्लकारः अस्ति. स इति लङ् प्रत्ययः निष्पन्न, सकारः इति सिद्धितिङ् प्रत्ययः मध्यमपुरुष एकवचने. अनन्तरं थस् इति प्रत्ययः, तस्य स्थाने तम् आदेशः, तस्थस्थमिपाम् इत्यनेन तम् आदेशः तमेव तत्र लङ्लकारे सिद्धितिङ् प्रत्ययः. अनन्तरं मध्यमपुरुष बहुवचनप्रत्ययः अस्ति थ, तत्र थ स्थाने त आदेशः, तस्थस्थमिपाम् इत्यनेन थ स्थाने त आदेशः, त एव तत्र लङ् प्रत्ययः निष्पन्नः, तदा एव सिद्धितिङ् प्रत्ययः लङ्लकारे. उत्तमपुरुषे मिप् इति एकवचने मिप् इति प्रत्ययः, मिप् स्थाने तत्र अम् आदेशः. अत्रापि सेम् सूत्रमस्ति, समानसूत्रं, तस्थस्थमिपां तां तं तामः इति मिप् स्थाने अम् आदेशः. सो अम् इति लङ् प्रत्ययः उत्तमपुरुष एकवचने अम् इति सिद्धितिङ् प्रत्ययः.
अत्र स्टार् चिह्नद्वयं दत्तमस्ति इत्यतः अत्र इतोपि अधिकचिन्तनम् अपेक्षितम् इति अवगन्तव्यं खलु?
आम् सत्यम्.
इत्युक्ते इतोपि अत्र बाध्यबाधकभावः अथवा बलाबलचिन्तनं करणीयम् अस्मिन् प्रसङ्गे अधोभागे दत्तमस्ति. पठतु.
वस् प्रत्ययः तत्र सकारलोपः भवति, यद्यपि अत्र अत्रापि विशिष्टसूत्रेण सकारस्य लोपः, वा इति लङ्लकारस्य सिद्धितिङ् प्रत्ययः, तथैव मस् स्थाने अपि सकारस्य लोपः विशिष्टसूत्रेण भवति. तत्रापि अत्रापि मा इति अवशिष्ट मा इति सिद्धितिङ् प्रत्ययः.
उत्तमम्. आहत्य लङि सिद्धप्रत्ययाः के?
लङि सिद्धितिङ् प्रत्ययः ताम् अन् मध्यमपुरुषे सकारः स तं त, उत्तमपुरुषे अम् व म.
उत्तमम्. इत्युक्ते एतेषां सिद्धप्रत्ययानां निर्माणार्थं सूत्राणि अपेक्षितानि. सूत्राणां प्रसङ्गे अत्र दत्तमस्ति. आदौ इतश्च. पठतु.
इतश्च इति सूत्रमस्ति तृतीयाध्याये चतुर्थपादे एकशततम सूत्रम्. नित्लकारस्य स्थाने यः परस्मैपदी ह्रस्व इकारान्त् तिङ् प्रत्ययः ह्रस्व इकारान्त् तिङ् प्रत्ययः तस्य अन्त्य इकारस्य लोपो भवति, येन विधिस्तदन्तस्य इत्यनेन इकारान्त् इत्यर्थः, अलो अनन्त्यस्य इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य इकारस्य लोपः, न तु पूर्णप्रत्ययस्य. इतः षष्ठ्यन्तं च अव्यपदं द्विपदमिदं सूत्रम्. इतश्च लोपः परस्मैपदेषु तृतीयाध्याये चतुर्थपादे सप्तनवतितमं सूत्रम्. इत्यस्मात् लोपः इति अनुवृत्तिः परस्मैपदेषु इत्यनयोः अनुवृत्तिः लोपः परस्मैपदेषु. अस्तु. नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. नितः लस्य इतः परस्मैपदस्य लोपः. इतश्च इति सूत्रस्य अत्र व्याख्या अस्ति. एतत् सूत्रं केवलं नित्लकारे एतस्य सूत्रस्य कार्यक्षेत्रं नित्लकारे.
अस्य सूत्रस्य प्रसक्तिः लट् लकारे लोट् लकारे नास्ति. अस्य सूत्रस्य कार्यं नित्सु लकारेषु एव अस्ति, किन्तु लोट् लकारे अस्य सूत्रस्य प्रसक्तिः किमर्थमस्ति?
तत्र अतिदेश सूत्रेण लोटो लङ्वत् इत्यनेन सूत्रेण तत्र लोट् लकारस्य उपरि लङ् लकारस्य तत्र आदेशः भवति.
उत्तमम्. यद्यपि इदं नित् विशिष्टं सूत्रं, तथापि लोट् लकारे अस्य प्रसक्तिः अस्ति. किमर्थं चेत् लोटो लङ्वत् इति अतिदेशसूत्रस्य कारणेन लोटो लङ्वत् इति उक्तत्वात् लोटि अपि इतश्च इति सूत्रस्य प्रसक्तिरस्ति, किन्तु प्राप्तिः नास्ति. किमर्थम्?
तत्र पेरुः इति सूत्रं कार्यं करोति.
तिप् इत्यत्र वदतु. तिप् इत्यत्र तु इति प्रत्ययस्य निर्माणं भवति, तत्र इतश्च सूत्रस्य प्रसक्तिरस्ति किन्तु प्राप्तिः नास्ति. किमर्थम्?
तत्र एरुः लोट् लकारे तत्र विशिष्टसूत्रमस्ति, केवलं लोट् लकारे एव कार्यं करोति. एरुः इति सूत्रेण तत्र इकारस्य तत्र उः आदेशः भवति, उ आदेशः भवति. अतः इतश्च इति सूत्रेण तत्र सूत्रं बाधितं भवति.
उत्तम एरुः इति अपवादसूत्रेण इतश्चेत् सूत्रस्य प्राप्तिः न भवति किन्तु इतश्च सूत्रस्य प्रसक्तिः लोटि अपि अस्ति वस्तुतः इदं सूत्रं नित्यलकारेषु एव कार्यं करोति नित्यलकाराः के इत्युक्ते कति नित्यलकाराः सन्ति
चत्वारि लकाराः सन्ति लङ्लकारः लुङ्लकारः लिङ्लकारः अपि च तत्र लिङ्लकारे लकारद्वयम् आशीर्लिङ्ग् अपि च विधिलिङ्ग्
लृङ्ग् अपि अस्ति खलु
लृङ्ग् अपि अस्ति आं सत्यं लृङ्ग् अपि अस्ति
इदं सूत्रं नित्विशिष्टं सूत्रमस्ति इत्यतः अन्येषु नित्सुलकारेषु अपि अस्य प्रसक्तिरस्ति किन्तु प्राप्तिर्भवति वा न वा इति अन्या वार्ता इत्युक्ते तत्र अन्यत् सूत्रम् आगत्य बलाबलचिन्तनं करणीयं चेत् बलाबलचिन्तनं कृत्वा नूतनसूत्रेण कार्यं करणीयं भवति अनेन सूत्रेण नित्सुलकारेषु कार्यं भवति इतोपि अत्र किमस्ति वदतु
अत्र यः प्रत्ययस्य अन्तिम इकारः तस्य अनेन सूत्रेण लोपः भवति इत्युक्ते यदि परस्मैपदीप्रत्ययेषु कोऽपि तादृशप्रत्ययः यस्य अन्तिमवर्णः ह्रस्व इकारः तस्य अनेन सूत्रेण लोपः भवति अपि च एतत् सर्वं कथं तत्र वक्तव्यम् इत्युक्ते अत्र येन विधि तदन्तस्य इति परिभाषासूत्रेण तत्र वयं ज्ञातुं शक्यते अत्र तदन्तविधिः इतश्च इत्यनेन तदन्तविधिः अस्ति किमर्थं चेत् सूत्रे तत्र यथा अनुवृत्तिसहितसूत्रं पठामः नितः लस्य इतः परस्मैपदस्य लोपः इति तत्र इतः परस्मैपदस्य लोपः तत्र विशेषणविशेष्यभावः अस्ति अतः अत्र येन विधि तदन्तस्य इत्यनेन तदन्तविधिः
अनुवृत्तिसहितसूत्रे परस्मैपदस्य इति पदम् उक्तमस्ति इति कारणतः इदं सूत्रं परस्मैपदिप्रत्ययानां प्रसङ्गे एव कार्यं करोति न तु आत्मनेपदप्रत्ययानां प्रसङ्गे परस्मैपदिप्रत्ययानां प्रसङ्गे इत्युक्ते कुत्र कुत्र
तत्र अनुबन्धानां निष्कासनम् अनन्तरं तत्र ति सि मि इति अस्ति अन्ते इकारः अस्ति
झि
अपि अस्ति झि अपि अस्ति अन्ते इकारः अस्ति अतः तत्र लङ्लकारे एतस्य इकारस्य तत्र लोपः भवति इतश्च इति सूत्रेण अत्र एतस्य सूत्रस्य प्रसक्तिः अपि अस्ति प्राप्तिः अपि भवति अतः अन्तिम इकारस्य अनेन सूत्रेण एव अत्र लङ्लकारे लोपः भवति इकारस्य लोपः
उत्तमम् इत्युक्ते तिप् सिप् मिप् झि एतेषु चतुर्षु स्थलेषु अस्य प्रसक्तिरस्ति किन्तु त्रिषु स्थलेषु एव अस्य कार्यं भवति मिप् इत्यत्र इतस्य सूत्रं बाधितं भवति खलु
आमां तस्थस्तमिपामितेन
उत्तमम् इतश्च इत्यत्र इतः इति कथनेन तत्र तपरकरणं कृतमस्ति खलु
आं ह्रस्व इकारः अनन्तरं षष्ठ्यन्तम् अस्ति इतः इति यः अस्ति तत्र इत् इति प्रातिपदिकं तस्य षष्ठ्यन्तम् अस्ति इतः सो अत्र तपरकरणं कृत्वा ह्रस्व इकारस्य एव ग्रहणम्
उत्तमम् इत् इतौ इतः एवं रूपाणि वक्तव्यानि भवन्ति इतः इति प्रथमाविभक्ति बहुवचनमपि भवितुमर्हति षष्टिविभक्ति एकवचनमपि भवितुमर्हति अयं शब्दः हलन्तशब्दः इत् इत् इतौ इतः एवं वक्तव्यं भवति प्रातिपदिकमस्ति इत् इतः योगः च इत्यत्र कीदृशसन्धिः अस्ति
इतः योग च अत्र विसर्गस्य कर्कशे परे सकार आदेशः विसर्जनीयसः इत्यनेन अनन्तरं चित्वसन्धि अपि अस्ति इतश्च इति भवति सूत्रम्
उत्तमम् नित्यविशिष्टं कार्यम् इत्यतः लङ्लकारे विधिलिङ्लकारे लुङ्लकारे लृङ्लकारे सर्वेषु नित्सुलकारेषु अस्य प्रसक्तिरस्ति किन्तु प्राप्तिर्भवति वा न वा इति अन्या वार्ता नूतनं सूत्रमस्ति चेत् कार्यं भवितुं न शक्नोति अपि च परस्मैपदिप्रत्ययानां प्रसङ्गे एव अस्य सूत्रस्य कार्यमस्ति इत्युक्ते तिप् सिप् मिप् झि एतेषु चतुर्षु स्थलेषु अस्य प्रसक्तिरस्ति किन्तु त्रिषु स्थलेषु एव अनेन सूत्रेण इकारस्य लोपः भवति आत्मनेपदप्रत्ययानां प्रसङ्गे के के प्रत्ययाः अनुबन्धवर्णानां लोपकार्यानन्तरं तत्र ई अवशिष्यते अन्ते भवती दृष्टवती वा आत्मनेपदिप्रत्ययानां प्रसङ्गे इत्संज्ञकवर्णानां लोपकार्यानन्तरम् इट् वहि महि एतेषु त्रिषु स्थलेषु अन्ते इकारः अस्ति तथापि अनेन सूत्रेण इकारस्य लोपः न भवति किमर्थम्
अत्र साक्षात् पूर्वसूत्रात् अत्र परस्मैपदस्य इत अनुवृत्तिः अस्ति अतः न भवति
इतः लोपः परस्मैपदेषु इति सूत्रात् परस्मैपदस्य इति पदम् अस्मिन् सूत्रे अनुवृत्तं भवति इत्यतः इदं सूत्रं परस्मैपदप्रत्ययानां प्रसङ्गे एव कार्यं करोति, न तु आत्मनेपदप्रत्ययानां विषये. आत्मनेपदप्रत्ययेषु इट् इत्यत्र अनुबन्धलोपानन्तरम् ई अवशिष्यते, वहि इत्यत्रापि अन्ते इकारः अस्ति, महि इत्यत्रापि अन्ते इकारः अस्ति, तथापि इदं सूत्रं तत्र कार्यं न करोति, इकारस्य लोपः तत्र न भवति. येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः भवति, किन्तु अत्र अलोन्त्यस्य कार्यं किमर्थम् अस्ति? अलोन्त्यस्य इति परिभाषासूत्रेण किं कार्यं भवति?
अन्तिम अल्वर्णस्य एव षष्ठी विभक्तिद्वारा निर्दिष्टः कार्य अन्तिम अलस्थाने सामान्यतया इत्युक्ते औत्सर्गिकरूपेण अन्तिम अलस्थाने एव, अतः अत्रापि अन्तिम अलस्थाने एव तत्र लोपः करणीयं, न तु सर्वस्य स्थाने.
उत्तमम्, अग्रे सरितुं शक्नुमः. धन्यवादाः भगिनी. मनीषा भगिनी, भवती अग्रिमं सूत्रं पठतु. तस्थस्थमिपां तान्तन्तामः.
मिपां तान्तन्तामः तृतीय अध्यायस्य चतुर्थपादस्य एकतमं सूत्रम्.
एकशतं सूत्रं.
तं थस् थ मिप् नित्सुलकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशाः तश्च थश्च थश्च मिप् च तेषाम् इतरेतरद्वन्द्वः तस्थस्मिपः तेषां तस्थस्मिपां तां च तं च तश्च अं च तेषाम् इतरेतरद्वन्द्वः तान्तन्तामः तस्थस्थामिपां षष्ठ्यन्तं तान्तन्तामः प्रथमान्तं द्विपदमिदं सूत्रं नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नितः लस्य तस्थस्थमिपां तान्तन्तामः. मम कृते अपि नूतनं सूत्रमस्ति आचार्य, अहं प्रयत्नं करोमि. तस्थस्थामिपां तान्तन्तामः इति सूत्रमस्ति. तर्हि अत्र तस् थस् अनन्तरं थ अनन्तरं मिप् एतेषां प्रत्ययानां कृते एतत् सूत्रमस्ति. तर्हि णित्सु लकारेषु इत्युक्ते ये लकारेषु येषां लकारेषु णित् इति नकार इतसंज्ञकः अस्ति, ते णित् तेषां कृते णित्सु लकारेषु इति वदामः, णित् लकारः तेषां प्रत्ययानां स्थाने क्रमेण तर्हि तत्स्थाने ताम् इति आदेशः भवति, थस्थाने तम् इति आदेशः भवति, थस्थाने त इति आदेशः भवति, मिप् स्थाने अम् इति आदेशः भवति. तर्हि अत्र यथासङ्ख्यम् अनुदेशसमानाम् इति सूत्रेण अत्र तस्थाने तां थस्थाने तं थस्थाने त मिप्स्थाने अम् इति आदेशः भवति.
क्रमेण इति कथनेन यथासङ्ख्यमनुदेशः समानाम् इति परिभाषासूत्रम् आगत्य अत्र सहकरोति इति अवगन्तव्यं खलु? अपि च अत्र चत्वारः आदेशाः सन्ति, चत्वारः आदेशिनः सन्ति यथासङ्ख्यमनुदेशः समानाम् इति परिभाषासूत्रस्य साहाय्येन क्रमेण आदेशाः भवन्ति. यथासङ्ख्यम् इति अव्ययीभावसमासयुक्तं पदं, यथाशक्ति, यथा योग्यम् इत्यादीनि पदानि अव्ययीभावसमासयुक्तानि पदानि. तत्र यथासङ्ख्यम् इति कथनेन विग्रहवाक्यं किं भवति? सङ्ख्याम् अनतिक्रम्य एवं तत्र विग्रहवाक्यं वक्तव्यं भवति. यथासङ्ख्यम् इति समस्तपदं भवति. क्रमेण इति कथनेन रेस्पेक्टिव्लि इति आङ्ग्लभाषया वक्तुं शक्नुमः. इत्युक्ते चत्वारः स्थानिनः सन्ति, चत्वारः स्थानिनः स्थाने चत्वारः आदेशाः क्रमेण भवन्ति इति अर्थः. अत्र एते आदेशाः अनेकाल आदेशाः, अतः अनेकाल्चित् सर्वस्य इति सूत्रेण सर्वादेशः भवति इति अवगन्तव्यं खलु?
आमाम्, अनेकाल अस्ति.
इदानीं भवती वदतु.
अत्र तर्हि समासविषये अस्ति. अत्र तत्स्थाने ताम् इति इदानीं ताम् स्वीकुर्मः चेत् अत्र अनेकाल् अस्ति, अत्र अनेकाल् अस्ति, तर्हि अनेकाल् शित् सर्वस्य इत्यनेन अत्र सर्वस्य स्थाने अत्र आदेशः भवति इति अस्य अर्थः अस्ति. अत्र अलोन्तस्य इति सूत्रं न कार्यं करोति, तावत् णिच्च इति सूत्रमपि न कार्यं करोति. तर्हि अत्र सर्वस्य स्थाने अनेकाश्चित् सर्वस्य इत्यनेन एव सर्वस्य स्थाने अत्र आदेशः भवति, तत्स्थाने तामादेश.
अत्र इतोपि समासानां प्रसङ्गे दत्तमस्ति, किञ्चित् वदतु समासानां प्रसङ्गे.
समासानां प्रसङ्गे तश्च अत्र वदामि, तश्च तश्च यश्च मिपच्च तेषाम् इतरेतद्वन्द्व.
तस्थस्थमिपः इति प्रथमान्तं पदमस्ति, तस्थस्थमिपः इति प्रथमान्तं समस्तपदम्. षष्ठीविभक्ति बहुवचनरूपं किमस्ति? तस्थस्थमिपाम् अस्ति खलु.
आमाम्, अत्र षष्ठी बहुवचनमेव अस्ति न?
हा, षष्ठी बहुवचनरूपं तस्थस्थमिपाम् इति अस्ति. प्रथमान्तं पदमस्ति तस्थस्थमिपः. तान्तं तामः इत्यत्र बहूनि सन्धिकार्याणि भवन्ति. तां च, तं च, त च, अं च समासानां प्रसङ्गे यज्जानाति तद्वदतु.
समासानां प्रसङ्गे न स्पष्टता अस्ति मम कृते, न अहम् अत्र किं वदामि चेत् एतत् न अवगतवती अहं. तां च, तं च, तश्च, अं च इतरेतरद्वन्द्वः अस्ति अत्र.
तत्र किं वक्तव्यम् इत्युक्ते चत्वारः पदार्थाः सन्ति, इत्युक्ते तां च, तं च, त च, अं च, रामः च, लक्ष्मणः च, भरतः च,
शत्रुघ्नः च, भरतः च,
एवं वदामः खलु. तादृशरीत्या एव अत्रापि चत्वारः पदार्थाः सन्ति इत्यतः तत्र द्वन्द्वसमासः अस्ति. द्वन्द्वसमासे अपि प्रकारद्वयमस्ति, अत्र इतरेतरद्वन्द्वसमासः अस्ति, अन्यप्रकारकद्वन्द्वसमासः अस्ति
समाहारद्वन्द्वः.
वदतु.
एवमेव अहम् अत्र अग्रे अस्ति तस्थस्थमिपां इदानीं तु समासप्रकरणं समाप्तमस्ति अत्र.
भगिनी, अत्र येन विधिस्तदन्तस्य अपि च अलोन्त्यस्य अनयोः परिभाषासूत्रयोः आवश्यकता नास्ति किमर्थम्?
नास्ति किमर्थम्? अनेकाल् अनेकाल् अस्ति आदेशः.
आदेशः अनेकाल् अस्ति इति कारणतः अलोन्त्यस्य इति सूत्रं कार्यं न करोति, अनेकाल्षित् सर्वस्य सूत्रेण सर्वादेशः भवति इति एका वार्ता. येन विधिस्तदन्तस्य सूत्रस्य आवश्यकता अत्र नास्ति. किमर्थं चेत् सूत्रे एव स्पष्टतया सर्वम् उक्तमस्ति, अतः परिभाषासूत्रस्य आवश्यकता नास्ति. अपि च अस्मिन् सूत्रे परस्मैपदम् इति किमर्थं न उक्तमस्ति?
नीट्लस्य आमाम्, अत्र अनुवृत्तिमध्ये णित् तथा च लस्य एव अस्ति. अनुवृत्तिसहितसूत्रं णितः लस्य तस्थस्थमिपां तान्तं तान् तामः. तर्हि अत्र प्रत्ययः तु सर्वे आत्मनेपदी नः सन्ति तेन वा?
उत्तमम्. पूर्वस्मिन् सूत्रे इत्यश्च इत्यस्मिन् सूत्रे परस्मैपदस्य इति पदं पूर्वसूत्रात् अनुवृत्तं भवति, किन्तु अस्मिन् सूत्रे परस्मैपदस्य इति न उक्तमस्ति. तत् पदम् अनुवृत्तरूपेण अस्मिन् सूत्रे न आयाति, तस्य वदनस्य आवश्यकता नास्ति. किमर्थम्?
तत्र साक्षात् प्रत्ययः लिखिताः सन्ति.
हा, इत्युक्ते एतादृशप्रत्ययाः आत्मनेपदेषु न सन्ति खलु?
हा, परस्मैपदेषु एव अस्ति.
तस् थस् थ मिप् ईदृशप्रत्ययाः केवलं परस्मैपदेषु एव सन्ति, न तु आत्मनेपदीप्रत्ययेषु. एतादृशनामानि न सन्ति, अतः अस्मिन् सूत्रे परस्मैपदम् इति पदम् अनुवृत्तं न भवति. किमर्थं वक्तुमिच्छामि इत्युक्ते इतश्च इति सूत्रं पूर्वसूत्रमस्ति. एकवारं सङ्ख्यां पश्यन्तु, इतश्च इति सूत्रं पूर्वसूत्रमस्ति, तस्थस्थमिपां तान्तन्तामः इति परसूत्रमस्ति. अतः पूर्वसूत्रात् अस्मिन् सूत्रे परस्मैपदम् इति पदम् अनुवृत्तं भवति वा इति चिन्तयामश्चेत् न भवति, तस्य आवश्यकता नास्ति. यद्यपि इतश्च इति सूत्रं पूर्वसूत्रम् अस्ति, तस्मात् परस्मैपदम् इति पदस्य आनयनस्य अवसरः नास्ति, तस्य अनुवृत्तेः आवश्यकता नास्ति. किमर्थं चेत् तस् थस् थ मिप् इत्यादयः प्रत्ययाः केवलं परस्मैपदेषु एव सन्ति, न तु आत्मनेपदेषु. भवती वदतु, इतोपि अत्र किं ज्ञातव्यम्?
इतोपि अत्र किं ज्ञातव्यं? ताम् इति आदेशः अस्ति, तम् इति अस्ति, अनन्तरं त अस्ति, आम् अम् अस्ति. तर्हि अत्र सन्धि अस्ति इति वक्तुं शक्नुमः इतोपि
तान्तन्तामः इति पदं स्वीकुर्मः चेत् तस्मिन् बहुत्र सन्धिकार्याणि वक्तव्यानि तत्र मकारस्य स्थाने आदौ अनुस्वारादेशः भवति
नष्टपदान्तस्य चलि इत्यनेन प्रथमम् अनुस्वारादेशः अनन्तरं नष्ट अनुस्वारस्य यै परसवर्णः इत्यनेन तत्र परसवर्णः अस्ति अपदान्त अस्ति नष्टपदान्तस्य जले पदान्ते एव कार्यं करोति
अस्तु अग्रे सरेम झोन्तः पठतु
झोन्तः सप्तमाध्यायस्य प्रथमपादस्य तृतीयसूत्रम् प्रत्ययस्य झकार अवयवस्य स्थाने अन्त आदेशः भवति जः षष्ठ्यन्तम् अन्तः प्रथमान्तम् द्विपदमिदं सूत्रम् आयनेयि नीयः फढ खच्च छद्घाम् घाम् प्रत्ययादीनाम् इत्यस्मात् प्रत्ययस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य प्रत्ययस्य झः अन्तः झोन्तः तर्हि अत्र अस्ति झः अन्तः अत्र सन्धि भूत्वा अस्ति
झः योगः अन्तः इत्यत्र सन्धिकार्यं वदतु
अत्र झः योग अन्तः अत्र अतोरोरप्लुतातप्लुते इत्यनेन उकारादेशः अनन्तरम् आद्गुणः इत्यनेन ओकारादेशः अनन्तरम् एङ्गः पदान्तात् अति इत्यनेन प्ररूप एकादेशः
बहु सम्यक् झः योगः अन्तः इत्यत्र झोन्तः इति रूपं सिद्ध्यति झः इति उक्तवती झः षष्ट्यन्तं खलु
आमां षष्ठी एकवचन
प्रथमान्तं किं भवति
अन्तः
न अत्र झः इति षष्ट्यन्तं
तर्हि तस्य प्रथमान्तं झः इति झः एव आगच्छति इति मन्ये झ हलन्तः अस्ति न
हलन्तशब्दः झ भवत् भवतौ भवतः एवं रूपाणि वदामः खलु भवत् प्रातिपदिकस्य भवत् षष्ठी
भवतः अस्ति तर्हि झतः वा
न भवतः इति षष्ठी विभक्ति एकवचनं यथा भवति
भवतां षष्ठी
एवमेव अत्रापि हलन्तशब्दः अस्ति इति कारणतः झ इति प्रथमाविभक्ति एकवचनं भवति मरुत् मरुतौ मरुतः एवं वदामः खलु एवमेव अत्र झ झौ झः एवं रूपाणि वक्तव्यानि भवन्ति प्रथमाविभक्तिरूपाणि अत्र षष्ठीविभक्ति एकवचनरूपं झः झः इति षष्ट्यन्तमस्ति हलन्तशब्दः अस्ति अपि च अन्तः इति उक्तवती अन्तः इति प्रथमान्तम् रामशब्दवत् रामः इव अजन्तप्रातिपदिकम् अस्ति अन्तः इत्यत्र अजन्तप्रातिपदिकम् अस्ति झः इत्यत्र हलन्तप्रातिपदिकम् अस्ति खलु
आम् भेदः अस्ति आमां भेदः अस्ति चेत् रामः रामौ रामः तावत् अन्तः अन्तौ अन्ताः इति प्रथमा इति भवति अत्र अनन्तरं तर्हि झकारस्य झकार अवयवस्य स्थाने अन्त आदेशः भवति तर्हि प्रत्ययस्य इदानीं प्रथमा बहुवचन तिप्तझि इति स्वीकुर्मः चेत् अत्र लङ्लकारस्य कृते नास्ति न अत्र झि एव तर्हि तर्हि अत्र झि स्थाने तर्हि झकार इकार तस्य अवयवझकारः अस्ति झकार तथा च इकार मध्ये तस्य झकारस्य स्थाने एव अत्र अन्त आदेशः भवति
अस्य सूत्रस्य प्रसक्तिः कुत्र कुत्र अस्ति केषु केषु स्थलेषु अस्ति
अत्र झोन्तः इति झि आत्मपरस्मैपदेषु झि स्थाने भवति आत्मनेपदेषु एकनिमिषम् अहं पश्यामि आत्मनेपदेषु
झ इति प्रत्ययः अस्ति खलु
झ इति प्रत्ययः अस्ति आमां कुत्र अस्ति झ प्रत्ययः
प्रथमपुरुष बहुवचनप्रत्ययः
आमां तो आतां झ आं तो आतां झ प्राप्तवती आं तो आतां झ थास आथां ध्वं तत्र थ अस्ति आत्मनेपदि प्रथम पुरुष बहुवचन तत्र अस्य प्रसक्तिः भवति झ स्थाने अस्ति तेन झि तथा च झ द्वयोः स्थाने अत्र अन्त इति आदेशः भवति
उत्तमं स्थलद्वये अस्य कार्यमस्ति इत्युक्ते परस्मैपदेषु प्रथमपुरुष बहुवचनप्रत्ययः झि प्रत्ययः एवमेव आत्मनेपदेषु प्रथमपुरुष बहुवचनप्रत्ययः झ प्रत्ययः द्वयोः स्थलयोः अस्य कार्यमस्ति इत्युक्ते इदं सूत्रं आत्मनेपदी प्रत्ययानां विषये कार्यं करोति, परस्मैपदी प्रत्ययानां विषये अपि कार्यं करोति, स्थलद्वये अस्य सूत्रस्य कार्यम् अस्ति। झि इत्यत्र झकारस्य इति संज्ञा भवति वा न भवति वा? न भवति चेत् किमर्थं न भवति?
झकारस्य इति संज्ञा अत्र न भवति झि स्थाने, अन्यथा एतत् सूत्रं व्यर्थं भवति जोन्तः अधि वयम् अस्य इत कुर्मः चेत्।
इतोपि स्पष्टतया वदतु।
झकारः अत्र न विभक्तौ तुस्मः इति सूत्रं यदि वयं पश्यामः चेत्
न विभक्तौ नास्ति,
चुटु
चुटु
न न हा हा तर्हि अस्य समावेश तत्र नास्ति इति अहं वदामि। न विभक्तौ तुस्मः इति सूत्रे झकारस्य समावेशः नास्ति, तेन अस्य इतसंज्ञा भवितुम् अर्हति चुटु इति सूत्रेण।
सम्यक्।
किन्तु अत्र चुटु इति सूत्रमपि कार्यं न कर्तुं शक्नोति, यतोहि अत्र झोन्तः सूत्रं व्यर्थः भवति, अस्य कृते अवकाशः न भवति, निरवकाशत्वं भवति अस्य।
उत्तमम्। झकारस्य इति संज्ञा भूत्वा झकारः लुप्यते चेत् तत्र अवशिष्टप्रत्ययः कः?
ई अवशिष्यते।
ई अवशिष्यते, किन्तु झोन्तः सूत्रं किं वदति?
झकारस्य स्थाने प्रत्ययस्य झकार इति झ तथा च ई द्वयोः मध्ये केवल झकारस्य स्थाने अन्तादेशः भवति, तेन ई तथैव तिष्ठति।
झकारस्य इति संज्ञा भूत्वा झकारः लुप्यते चेत् तत्र ई इति अवशिष्टप्रत्ययः अस्ति, तथा भवति चेत् झोन्तः इति सूत्रस्य कार्यं भवितुं न अर्हति, इत्युक्ते झोन्तः इति सूत्रं व्यर्थं भवति स्म, तथा मा भवतु इति अत्र आशयः अस्ति। इत्युक्ते अष्टाध्याय्याम् एकमपि सूत्रं व्यर्थं मा भवतु इति पाणिनेः आशयः अस्ति, अतः अत्र प्रयोजनाभावात् झकारस्य इति संज्ञा न भवति, अथवा झोन्तः इति सूत्रं व्यर्थं मा भवतु इति आशयं मनसि निधाय अत्र चिन्तनं कृतमस्ति। वदतु।
तर्हि झकारस्य स्थाने अन्त इति आदेशः भवति, तेन अन्तयोग ई मिलित्वा अत्र अन्ति इति प्रथमपुरुष एकवचन प्रश्नेपदी मध्ये भवति, तथापि अत्र अन्त इति भवति यतोहि झ इति एव अस्ति तत्र, तेन अन्त इति आदेशः भवति झ स्थाने।
केवलं झकारस्य स्थाने एव अन्त आदेशः भवति। एकवारम् एवं चिन्तयतु, प्रथमपुरुष लङ्लकार बहुवचनरूपम् अभवन् इति रूपम् अस्ति। अभवन् अभवन् इत्यत्र किं चिन्तनम् अस्ति? झोन्तः सूत्रस्य कार्यं किम् अस्ति? तत्पश्चात् कानि कानि कार्याणि सन्ति अभवन् इत्यत्र?
अभवन् मध्ये इदानीम् अस्माकम् अङ्गम् अस्ति अभव, यतोहि एतत् लङ्लकारः अस्ति, तेन अत्र लङ् लङ् किमस्ति लुङ् लङ् अडुदात्तः इति सूत्रेण अत्र अटागमः भवति, तर्हि धातोः पूर्वम् आयाति, टित् अस्ति, तेन आद्यन्तो टकितौ इति सूत्रेण पूर्वम् आयाति, अनुबन्धलोपानन्तरम् अ एव अवशिष्यते, भूमध्ये भव इति अङ्गं भवति, वयं वदामि वा पूर्वं?
वदतु।
भूयोग अत्र भूयोग अस्माकं विवक्षा लङ् लकारस्य अस्ति, तेन लङ्लकारः तिप्रत्ययः तिंचित् प्रत्ययेषु अस्ति, तेन सार्वधातुक् प्रत्ययः अस्ति, सार्वधातुक् कर्तृते अस्ति, तेन अत्र शप् प्रत्यय कर्तरि शप् इति प्रत्ययः विकरणप्रत्ययः आयाति, शप् मध्ये अनुबन्धलोपानन्तरम् अ एव अवशिष्यते, शप् इति पित् प्रत्ययः अस्ति, तेन अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रेण अत्र इगन्त अङ्गस्य गुणा भवति, तेन अत्र भू मध्ये भू भ उकार उत्तरवर्ती यत् उकारः अस्ति तस्य स्थाने ओकारादेशः भवति, तर्हि भो योग अयोग त भो मध्ये ओ अस्ति, भ भकार उत्तरवर्ती ओकार अनन्तरम् अ, तर्हि अत्र एचो यवायावः संहितायाम् अस्य अधिकारेण एचो यवायावः इति सूत्रं कार्यं करोति, तर्हि ओकारस्य स्थाने अव इति आदेशः भवति, तर्हि वर्णमेलनं कृत्वा भव इति अङ्गं भवति, भव योग अ भव इति अङ्गं भवति, भव इति अङ्गम् अनन्तरं लङ्लकारः अस्ति, तेन पूर्वमेव अहम् उक्तवती अट् आगमेन अत्र अ आगच्छति, तर्हि अभव इति अस्माकम् अङ्गम्, अनन्तरम् अभवन् अस्ति तर्हि अभव योग झ अस्माकं विवक्षा अस्ति, तेन बहुषु बहुवचनम् इति सूत्रेण अत्र झकार आयाति, प्रथमपुरुषबहुवचनस्य झकार इति झ इति प्रत्यय आयाति, झोन्तः इति सूत्रेण झोन्तः इति सूत्रेण प्रत्ययस्य झकार अवयवस्य स्थाने अन्त इति आदेशः भवति, झ योग अ तर्हि अत्र अन्त आदेश झ स्थाने एव भवति,
अकारः उच्चारणार्थः इति मन्ये,
आम् आचार्य, तर्हि झकार उत्तरवर्ती अकार अस्ति उच्चारणार्थमस्ति तेन झ स्थाने अन्त आदेशः भवति, तर्हि अभव अभव योग अन्त इति इदानीं भवति, तर्हि अभव योग अन्त वकार मध्ये अकारः अस्ति, अनन्तरमपि अन्तमध्ये अकारः अस्ति तेन अत्र अतोगिणि गुणे इति सूत्रम् अत्र प्रवर्तते, अतोगुणि गुणे सूत्रं वदति यत् अपदान्त अकारात् अनन्तरम् उत्तर किं वदामः अनन्तरं यदि गुणसंज्ञकवर्णाः भवन्ति चेत् पूर्वपरयोः स्थाने पररूप एकादेशः भवति, तेन अत्र पूर्व य अकारः अस्ति तत्र तस्य लोपः भवति, केवल अत्र अकार एकः एव तिष्ठति तेन अभवन् इति रूपं भवति, अनन्तरम् अत्र तकारस्य अपि लोपः करणीयं न आचार्य?
तस्मात् पूर्वं किं वक्तव्यं, झकारस्य स्थाने एव अन्तादेशः भवति सिद्धप्रत्ययस्य निर्माणावसरे झकारस्य स्थाने अन्तादेशः भवति चेत् तत्र अन्ति इति रूपं सिद्ध्यति, तत्र इतश्च सूत्रेण इकारस्य लोपः पश्चात् संयोगान्तस्य लोपः इत्यनेन तकारस्य लोपः भवति, अन्ततो गत्वा अभवन् इति रूपं सिद्ध्यति। अस्तु अग्रे सरेम, इदानीमत्र पूर्वसूत्रात् प्रत्ययस्य इति पदस्य अनुवृत्तिः भवति न तु प्रत्ययादीनां, तत्र पूर्वस्मिन् सूत्रे आयनेयी नीयः खड्खघां प्रत्ययादीनाम् इति सूत्रं दत्तमस्ति, तस्मात् सूत्रात् प्रत्ययस्य इत्यस्य एव अनुवृत्तिः अस्ति न तु आदि इति शब्दस्य अनुवृत्तिः अस्मिन् सूत्रे नास्ति, केवलं प्रत्ययस्य इत्यस्य एव अनुवृत्तिः अस्ति, अपि च अत्र अङ्गस्य इत्यस्य अधिकारः अस्ति, इदं सूत्रम् अङ्गाधिकारे अस्ति चेदपि अनेन सूत्रेण अङ्गकार्यं न भवति खलु?
आम् अङ्गकार्यं न भवति, अत्र अङ्गकार्यं नास्ति, न केवल अङ्गस्य अधिकारः अस्ति किन्तु अत्र अङ्गकार्यं न भवति, किन्तु अङ्गस्य अधिकारेण एव अत्र झस्थाने जी झकारस्य स्थाने अन्त आदेशः भवति।
धन्यवादाः भगिनी। नीलं भगिनी भवती वदतु, इदं सूत्रम् अङ्गस्य इत्यस्मिन् अधिकारे अस्ति तथापि अनेन सूत्रेण अङ्गकार्यं न भवति, इदं सूत्रम् अङ्गाधिकारे किमर्थं स्थापितमस्ति?
किं वदामि, अत्र प्रत्ययः इत्यनेन प्रत्ययस्य अङ्गस्य परे यः प्रत्ययः तस्मिन् यः जकार अवयवः तस्य स्थाने अन्त्य आदेशः इति सूत्रस्य अर्थः, अतः कोऽपि प्रत्ययस्य विषये विचारः कुर्मः चेत् तत्र एतस्य सूत्रस्य प्रसक्तिः न भवति, इत्युक्ते तत्र एव जकारस्य अन्त आदेशः करणीयम्।
सूत्रम् अङ्गाधिकारे अस्ति किन्तु अनेन सूत्रेण अङ्गकार्यं न भवति, अङ्गकार्यम् इत्युक्ते प्रत्ययम् आश्रित्य अङ्गे यत् कार्यं भवति तद् अङ्गकार्यं, प्रत्ययात् पूर्वं यावदस्ति तत्सर्वम् अङ्गम् इति वदामः, अनेन सूत्रेण प्रत्ययादेशः भवति इत्युक्ते झकारस्य स्थाने अन्तादेशः इति कथनेन तत्र केवलं प्रत्ययादेशः एव भवति न तु अङ्गकार्यम्। अहं चिन्तयामि अनुवृत्त्यर्थं
विधिसूत्रमस्ति, विधिसूत्रे अधिकारसूत्रस्य अनुवृत्तिः अवश्यकरणीयं, परन्तु अत्र किमर्थं स्थापितम् इति कोऽपि
अहं श्रुतवती यत् अनुवृत्त्यर्थम् अस्मिन् अध्याये स्थापितमस्ति, यद्यपि अनेन सूत्रेण अङ्गकार्यं न भवति, केवलं प्रत्ययादेशः एव झोन्तः सूत्रेण भवति इति मया श्रुतम्। अस्तु अग्रे सरेम, नरसिंह हेग्डे महोदय भवान् पठतु अग्रे।
नित्यं नितः, नितः लकारस्य लकारान्त उत्तमपुरुषस्य प्रत्ययस्य अन्त्यसकारलोपो भवति, येन विधिस्थितं तस्य इत्यनेन सकारान्तः इत्यर्थः, अलोन्तस्य इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य सकारस्य लोपः न तु पूर्णप्रत्ययस्य। नित्यं द्वितीयान्तं क्रियाविशेषणं नितः षष्ट्यन्तं द्विपदमिदं सूत्रं स उत्तमस्य सूत्रस्य पूर्णतया अनुवृत्तिः, इतश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्त्यस्य सूत्रं नितः लस्य सः उत्तमस्य नित्यं लोपः अत्र नित्लकारे नित्लकारे इत्युक्ते लङ्लकारे विधिलङ्लकारे सकारान्त उत्तमपुरुषप्रत्ययस्य सकारान्त उत्तमपुरुषप्रत्ययानि सन्ति वस्मस् तेषाम् अन्त्यसकारस्य लोपः भवति अन्यथा न भवति स्म किमर्थमित्युक्ते तत्र न विभक्तत्व स्म इति अत्र संज्ञा बाधकं करोति परन्तु एतत् सूत्रं तस्य निषेध न विभक्तत्व स्म इत्यस्यापि निषेधकसूत्रमस्ति अतः तस्य सर्वदा अस्य सकारस्य लोपः भवतु इति वदति नित्यं निथा
सकारस्य लोपः हलन्त्यं सूत्रं बाधित्वा न विभक्तौ स्मः इति सूत्रेण सकारः तिष्ठति
प्रथमतया हलन्तम् इत्यस्य प्रसक्तिः वस्मश्च इत्यत्र किमर्थम् इत्युक्ते अन्ते हल् वर्णः अस्ति सकारः अतः हलन्त्यम् इत्यस्य प्रसक्तिः तत् बाधित्वा तत् न विभक्तौ स्म इति तत् हलन्त्यम् इत्यस्य बाधा करोति न विभक्तौ स्म इति वदति यदि विभक्तिप्रत्ययः अस्ति चेत् तत्र अन्तिमतवर्गस्य वा सकारस्य वा मकारस्य लोपः न संज्ञा न भवति इति अत्र तिङ्प्रत्ययः विभक्तिः कथं भवति इत्युक्ते तत्र एकं सूत्रमस्ति विभक्तिश्च इति सूत्रेण तिङ्प्रत्ययः अपि विभक्तिप्रत्ययः इति मन्यन्ते अतः अत्र न विभक्तौ स्म इत्यस्य प्रसक्तिः भवति अतः तत्र सकारस्य लोपः न भवति भवति स्म परन्तु एतत् नित्यं नित्यं निता इति सूत्रम् आगत्य वदति भवतु परन्तु लकारस्य लोपः भवतु इति एतत् सूत्रं वदति कुत्र इत्युक्ते नित्लकारेषु विधिलिङ्लकारेषु लङ्लकारेषु
दृष्टवती अतः वदन्ती अस्मि आत्मनेपदप्रत्ययेषु थास् इति एकः प्रत्ययः अस्ति ता आतां झ थास् आतां द्वम् एवं वदामः खलु थास् इत्यत्र सकारः अन्ते अस्ति आत्मनेपदप्रत्ययेषु थास् इत्यत्र सकारस्य लोपः न भवति किमर्थम्
तत्र थासे इति एकं सूत्रमस्ति तस्य सम्पूर्णस्य थासस्थाने से इति भवति
अस्य सूत्रस्य प्रसक्तिः आत्मनेपदप्रत्ययेषु थास् इत्यत्र किमर्थं नास्ति
तत्र तास् इत्यत्र तससे भवति से भवति
नित्यं नितः इत्यस्मिन् सूत्रे किम् उक्तमस्ति
हा नित्यं नित सूत्रेषु उक्तमस्ति नित्लकारस्य उत्तमपुरुषप्रत्ययस्य अन्त्यसकारस्य लोपो भवति अन्त्यसकारस्य लोपो भवति येन विद्युत्सदस्य इत्यनेन सकारान्तः इत्यत्र
नित्यलकारेषु अस्य सूत्रस्य कार्यमस्ति अपि च सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकारस्य लोपः इति उक्तमस्ति
सकारान्त नास्ति इड्वै मयिङ्ग् इति अस्ति अतः तत्र
तत्र मध्यमपुरुषे अस्ति
मध्यमपुरुषे अस्ति तास् इत्यत्र परन्तु तत्र अन्यसूत्रं कार्यं करोति
उत्तमं सकारान्त उत्तमपुरुषप्रत्ययस्य अन्तिमसकारस्य लोपः भवति इति उक्तमस्ति इत्यतः उत्तमपुरुषप्रत्ययेषु एव अस्य कार्यमस्ति किन्तु आत्मनेपदप्रत्ययेषु थास् इति प्रत्ययः मध्यमपुरुषे अस्ति अतः तत्र अनेन सूत्रेण कार्यं न भवति इत्युक्ते सकारस्य लोपः आत्मनेपदप्रत्ययेषु न भवति तत्र उत्तमपुरुषप्रत्ययाः इद्वहि महिङ् अतः तत्र अस्य सूत्रस्य प्रसक्तिर्नास्ति भवान् वदतु
एतत् सूत्रं वदति अतः तत्र उत्तमपुरुषे सकारस्य लोपः भवति अत्र नित्यं नित इति सूत्रेण नित्यसहितसूत्रमस्ति नितःलस्य सः उत्तमस्य नित्यं लोपः इति
अत्र येन विधिस्तदन्तस्य सूत्रेण किं भवति
येन विधिस्तदन्तस्य इत्यनेन तत्र न केवलं सकारः परन्तु तादृशप्रत्ययस्य अन्ते सकारः अस्ति
तादृश अर्थः स्वीकर्तव्यः अलोन्त्यस्य इत्यनेन
अन्तिम अल् वर्णस्थाने लो संज्ञा भवति अन्तिम अल् वर्णस्य स्थाने विधिः भवति
इत्युक्ते अत्र अन्तिम अल् वर्णः सकारः अतः सकारस्य लोपः उत्तमम् अग्रे पठतु
अत्र प्रश्नः उदेति यत् अस्मिन् सूत्रे नित्यं किमर्थम् उक्तम् उत्तरमस्ति अस्माकम् अष्टाध्यायी सूत्रपाठे पुस्तके पश्यतु इदं सूत्रं 3499 किल तस्मात् पूर्वं 3496 तमे सूत्रे प्रथमं पदमस्ति वा वैतोऽन्यत्र वा एतः अन्यत्र वा नाम विकल्पेन अग्रिमयोः द्वयोः सूत्रयोः अपि तस्य अनुवृत्तिः प्रवर्तमाना अतः वा शब्दः अनयोः सूत्रयोः 3497 3498 आगत्य उपविशति अधुना अस्माकं सूत्रमस्ति 3499 अस्मिन् सूत्रे यः सकारलोपः विहितः सः वैकल्पिकः नास्ति अतः वा इति अनुवृत्ति स्थगयितुं नित्यं शब्दः अत्र प्रयुक्तः नाम केवलम् अत्र कार्यं वैकल्पिकं नास्ति वैकल्पिकं नास्ति इति सूचयितुं नित्यम् इत्यस्य प्रयोगः कृतः. अत्र नित्यम् इत्यस्य आवश्यकता किमर्थम् इति तस्य विवरणमस्ति. तत्र पूर्वतमे सूत्रे इत्युक्ते द्वे सूत्रे तत् पूर्वं तत्र एकं सूत्रमस्ति वैतोऽन्यत्र इति, इत्युक्ते वा एतः अन्यत्र.
महोदय वैतोऽन्यत्र इत्यत्र वा एतः द्वयोर्मध्ये कीदृशसन्धिकार्यमस्ति?
अत्र वृद्धिसन्धि अस्ति.
उत्तमं. सूत्राणां सङ्ख्यां स्पष्टतया वदतु अपरेषां कृते.
तृतीयाध्याये चतुर्थपादे नवनवतितम एतत् सूत्रमस्ति नित्यं नितः. तस्मात् पूर्वं तृतीयाध्याये चतुर्थपादे षड्नवतितमसूत्रम् अनन्तरं तत् षड्नवतितमे सूत्रं किम् अस्ति इत्युक्ते एतत् वैतोऽन्यत्र इति अस्ति. तत्र वा इति उपयुक्तमस्ति. एतत् वा इति अन्यत् सूत्रद्वयम् इत्युक्ते तृतीयाध्याये चतुर्थपादे सप्तनवतितम अनन्तरं तृतीयाध्याये चतुर्थपादे अष्टनवतितमसूत्रे अपि आगत्य उपविशति. इदानीम् अस्माकं सूत्रमस्ति नवनवतितमसूत्रं, तस्य प्रसक्तिः अत्रापि वा इत्यस्य भवति, परन्तु अस्माकं कृते एतत् वा इति आवश्यकं नास्त्यस्त्र. अतः तत् प्रक्रिया स्थगयितुम् अत्र नित्यमिति उपयोगितमस्ति. अन्यथा किं भवति, वस्मस् इत्यत्र एकस्मिन् पक्षे सकारस्य लोपः भवति, अन्यस्मिन् पक्षे सकारस्य लोपः न भवति. तादृशम् अस्माकम् इच्छा नास्ति. सर्वे सर्वदा तस्य लोपः भवति इति कृत्वा तत्र नित्यम् इति पदं योजितम् अस्ति.
बहु सम्यक्. अत्र कार्यं वैकल्पिकं नास्ति इति सूचयितुं नित्यम् इति शब्दस्य प्रयोगः कृतः खलु?
आमां. तत्र एकं शब्दम् एक्स्ट्रा अस्ति नित्यम् इति, परन्तु तस्य आवश्यकता अस्ति.
वैतोऽन्यत्र इति सूत्रमस्ति, षण्णवतितमं सूत्रमस्ति. षड्नवति साधु, षण्णवति साधु, तत्र विकल्पेन रूपद्वयं सिद्ध्यति सन्धिकार्यं भूत्वा. षण्णवतितमं सूत्रमस्ति वैतोऽन्यत्र. तस्मात् परम् इतश्च लोपः परस्मैपदेषु इति एकं सूत्रमस्ति. तस्मिन् सूत्रे अपि वा इत्यस्य अनुवृत्तिः अस्ति. स उत्तमस्य इति अन्यत् सूत्रमस्ति, तस्मिन् अपि वा इति शब्दस्य अनुवृत्तिः अस्ति. तस्मात् परं नित्यं नितः इति सूत्रम् आगतम्. अनेन सूत्रेण कार्यं नित्यरूपेण भवति इति वक्तव्यमस्ति. तत्र विकल्पेन कार्यं न भवति इति वक्तव्यम्. कार्यं वैकल्पिकं नास्ति इति वक्तुम् अत्र नित्यम् इति पदं स्थापितमस्ति. अग्रे पठतु भवानेव.
संयोगान्तस्य लोपः, यस्य पदस्य अन्ते संयोगो अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपो भवति. अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः, न तु पूर्णपदस्य. पूर्णपदस्य संयोग अन्ते अस्ति यस्य, तत् संयोगान्तः. संयोगान्तं बहुव्रीहि तस्य संयोगान्तस्य. संयोगान्तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रं. पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः.
महोदय तस्मात् पूर्वम् उपरितने भागे संयोगः नाम किं, हलोऽनन्तराः संयोगः, एतत् सर्वं दत्तमस्ति. एकवारं पुनस्मरणं भवति. उपरि गत्वा तत्र स्टार् चिह्नम् अस्ति. संयोगः नाम किम् इति दत्तमस्ति. संयोगसंज्ञासूत्रं पठतु.
संयोगः यदा द्वयोः अथवा तदधिकनां हल् वर्णानाम् अव्ययितुं मेलनं भवति, नाम तन्मध्ये अच्वर्णः न आयाति, तदा संयोगः इत्युच्यते. तस्य कृते सूत्रमस्ति हलोऽनन्तराः संयोगः. यदि सः संयोगः कस्यापि पदस्य अन्ते भवति तर्हि तस्य संयोगस्य अन्ते यः वर्णः भवति तस्य वर्णस्य लोपः भवति संयोगान्तस्य लोपः इति सूत्रेण. यथा अत्र अन्त् इत्यस्ति, नन्त् नकारः अनन्तरं तकारः इति संयोगः अस्ति. अपि च सः संयोग अन्त् इत्यस्य अंशस्य अन्ते अस्ति, पदान्ते च, अतः तकारस्य लोपः भवति. यत्र यत्र पदस्य अन्ते संयोगः अस्ति तत्र अन्तिम अल्वर्णस्य लोपः भवति संयोगान्तस्य लोपः इति सूत्रेण.
हलोऽनन्तराः संयोगः सूत्रस्य प्रसङ्गे किञ्चित् वदतु.
हलोऽनन्तरः संयोगः इति सूत्रं वदति, इत्युक्ते द्वयोः हल्वर्णयोः मध्ये किमपि अन्तरः न भवेत्,
अच्वर्णः न भवेत्,
अच्वर्णः न भवेत्. तादृशपरिस्थित्यां तत्र संयोगस्थितिः इति उच्यते.
संयोगः इति एका संज्ञा अस्ति. हल् अनन्तराः संयोगः इति एकं संज्ञासूत्रमस्ति. हलः अनन्तराः संयोगः, तत्र हलः अनन्तराः संयोगः इति तत्र पदविच्छेदं कुर्मः चेत् रूपं भवति. तत्र अन्तरा इति एकम् अव्ययपदमस्ति, न अन्तरा अनन्तरा, नैतत्पुरुषसमासः अस्ति. हलः अनन्तराः अनयोर्मध्ये विशेषणविशेष्यभावः अस्ति. अन्तरा इत्युक्ते मध्ये, हल् वर्णानां मध्ये कोऽपि अच् वर्णः नास्ति चेत् तत्र संयोगः अस्ति इति वक्तव्यं भवति. संयोगान्तस्य पदस्य अन्तिमवर्णस्य लोपः भवति संयोगान्तस्य लोपः इति सूत्रेण. संयोगान्तस्य लोपः इत्यस्मिन् सूत्रे अपि अलोन्त्यस्य इति परिभाषासूत्रस्य आवश्यकता अस्ति. वदतु.
तत्रापि तत्र लोपः कुत्र भवति इत्युक्ते तत्र अलोन्तस्य इति सूत्रस्य सहायेन तत्र अन्तिम अलोर्णस्य लोपः भवति.
उत्तमम्. अपि च संयोगान्तस्य पदस्य इति उक्तमस्ति. अत्र पदसंज्ञा अस्ति वा? पदस्य इति किमर्थम् उक्तमस्ति? पदसंज्ञा केन सूत्रेण भवति?
पदसंज्ञा सुप्तिगन्तं पदम् इति सूत्रेण भवति. तत्र पदाधिकारे अस्ति, पदस्य इति अधिकारे अस्ति.
संयोगान्तस्य पदस्य अन्ते स्थितस्य वर्णस्य लोपः भवति संयोगान्तस्य लोपः इति सूत्रेण. अपठन् इत्यत्र पदसंज्ञा कुत्र अस्ति तत्सर्वं विवृणोतु.
अपठन् इत्यत्र लङ्लकारस्य रूपमस्ति. अपट इति अङ्गम्, अनन्तरम् अन् इति प्रत्ययः, अत्र उत्तमपुरुषः. अत्र अपट योग अन् अत्र अतोगुण इत्यनेन पररूप एकादेशः भवति. अपठन् इति भवति रूपम्.
अपठन् इति रूपसाधनवेलायाम् आदौ अपठन्त् इति रूपं सिद्ध्यति. संयोगान्तस्य लोपः इति सूत्रस्य कार्यं वदतु.
अपठन्त् इति भवति. अत्र अन्त् इत्यत्र संयोगः अस्ति नकारतकारस्य, अतः तत्र इदानीम् अपट इति अङ्गम्, अनन्तरं तस्य अग्रे प्रत्ययः, अतः तत्र सुप्तिकं किं पदम् इति अपठन्त् इति पदसंज्ञा भवति. इदानीम् आरम्भे धातुः अस्ति, अनन्तरं प्रत्ययः अस्ति, अतः सुप्तिगन्धपदमित्यनेन धातु पदसंज्ञा भवति. इदानीं पदान्ते अत्र संयोगः अस्ति. पठन्त् इत्यत्र नकारः तकारस्य संयोगः अस्ति, अतः संयोगान्तस्य लोप इत्यनेन तकारस्य लोपः भवति. इदानीम् अलोन्तस्य इत्यस्य सहायेन अन्तिमतकारस्य लोपः भवति, अतः अपठन् इति अवशिष्यति.
बहु सम्यक्. संयोगान्तस्य पदस्य अन्ते स्थितस्य वर्णस्य लोपः भवति इति उक्तमस्ति संयोगान्तस्य लोपः इति सूत्रेण. अपठन् इति पदस्य रूपसाधनवेलायाम् आदौ अपठन्त् इति रूपं द्रष्टुं शक्नुमः सिद्धप्रत्ययस्य निर्माणात् पूर्वं. सिद्धप्रत्ययः अन् इति अस्ति खलु, तत्र अङ्गात् परं तिङ् प्रत्ययः अस्ति. अन् इति तिङ् प्रत्ययः खलु. तिङ् प्रत्ययस्य योजनेन सुप्तिङ्गन्तं पदम् इति सूत्रेण तस्य शब्दस्वरूपस्य सम्पूर्णशब्दस्वरूपस्य पदसंज्ञा भवति इत्यतः संयोगान्तस्य लोपः इति सूत्रेण अन्तिमतकारस्य लोपः भवितुं शक्नोति. तेन एव तत्र प्रथमपुरुषबहुवचनसिद्धप्रत्ययः अन् इति निर्मितं भवति. संयोगः इति एका संज्ञा अस्ति, केवलं वर्णद्वयस्य एव संयोगसंज्ञा नाम्ना ज्ञायते. इत्युक्ते एकस्मिन् समये केवलं वर्णद्वयं वर्णद्वयम् एव स्वीकृत्य तत्र संयोगः अस्ति वा इति पृथक्तया परिशीलनीयं भवति. त्रयाणां वर्णानां ग्रहणं कृत्वा संयोगः अस्ति एवं न वदामः, तथा न स्वीकुर्मः. केवलं वर्णद्वयं वर्णद्वयमेव स्वीकृत्य तत्र संयोगः अस्ति वा इति पृथक्तया परिशीलनीयं भवति. संयोगान्तस्य लोपः इति प्रसङ्गे इतोपि किं ज्ञातव्यं महोदय, भवान् वदतु.
तावदेव अस्ति. तत्र संयोगान्तस्य लोपः इत्युक्ते संयोगान्तस्य पदस्य लोपः. अत्र कुत्र लोपः इत्युक्ते अलोन्तस्य इत्यनेन अन्तिम अल्वर्णस्य लोपः भवति, तस्य पदसंज्ञा भवेत् इत्यपि निमित्तमस्ति. तत्र संयोगः भवत् अन्ते इत्यपि निमित्तमस्ति. अनन्तरं कुत्र लोपः भवति इत्युक्ते अलोन्तस्य इत्यनेन अन्तिम अल्वर्णस्य संयोगः अन्तस्य यत्र अन्ते यस्य अन्ते संयोगः अस्ति तस्य तस्य सः.
अत्रैव लिखितमस्ति बहुव्रीहिसमासप्रसङ्गे विग्रहवाक्यं दत्तमस्ति. वदतु. संयोगान्तं,
संयोगान्तम् इत्युक्ते संयोगः अन्ते अस्ति यस्य, तत् संयोगान्तम्. अन्ते संयोगः भवेत् तत्र संयोगान्ते अस्ति यस्य तत् संयोगान्तमिति भवति.
किमर्थं संयोगान्तम् इति उक्तमस्ति इत्युक्ते संयोगान्तं पदम् इत्युक्ते पदस्य विशेषणं भवति इत्यतः संयोगान्तं पदम् बहुव्रीहिसमासयुक्तं पदम् अन्यपदस्य विशेषणं भवति. संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं संयोगान्तं पदं तस्य संयोगान्तस्य अत्र बहुव्रीहिसमासः अस्ति. अग्रे सरेम. साधु महोदय. सुन्दर महोदय भवान् पठतु अग्रे किं दत्तम्.
देयं यत् अत्र इतश्च तस्थ समीपान्तं तामः इति द्वयोः सूत्रयोः प्रसक्तिः अस्ति. सूत्रद्वयमपि ञित्सु एव प्रवर्तते किन्तु तस्थस्थमिपान्तान्तन्तामः इत्यनेन ञित्सु यदि मिपः स्थाने अम् आदेशः न स्यात् तर्हि सूत्रस्य तत् दलं व्यर्थं भविष्यति इति कृत्वा मिपः स्थाने अम् आदेशः भवति. अधुना अत्र इतश्च इति सूत्रेण तस्थस्थमिपान्तान्तन्तामः इति द्वयोः सूत्रयोः एव प्रसक्तिः भवति.
कुत्र
प्रथम उत्तमपुरुष एकवचनस्य एकवचने
प्रत्ययस्य नाम किम्? उत्तमपुरुष एकवचनप्रत्ययस्य नाम किम्?
नाम किम् अम् इति सारि अम् एव. इतश्च इति सूत्रस्यापि प्रसक्तिः अस्ति. एवं तस्थस्थमिपां तान्तन्तामः इति सूत्रस्य अपि प्रसक्तिः भवति तत्र उत्तमपुरुषे एकवचनस्य प्रत्ययस्य.
अत्र किमर्थं स्टार् चिह्नं दत्तमस्ति?
स्टार् चिह्नं इतश्च ओके इतश्च इति ध्येयं यत्
उपरितने भागे मिप् इत्यत्र मिप् स्थाने अमादेशः भवति. अम् इति सिद्धप्रत्ययस्य निर्माणं भवति. अम् इति लङ् प्रत्ययः निष्पन्नः इति उपरितने भागे लिखितमस्ति. तत्रापि स्टार् चिह्नं दत्तमस्ति. तस्य परिशीलनम् अधुना कुर्मः. मिप् इति प्रत्ययस्य स्थाने अमादेशः किमर्थं भवति इति प्रश्नस्य उत्तरम् अस्मिन् परिच्छेदे दत्तमस्ति.
मिप् इति प्रत्ययस्य इतश्च इति सूत्रम् अपि कार्यं कर्तुं प्रसक्तिः अस्ति. तस्थस्थमिपान् तान्तन्तामः इति अपि सूत्रं कार्यं कर्तुं प्रसक्तिः अस्ति. परन्तु तत्र तस्थस्थमिपान् तान्तन्तामः इति ञित्सु लकारेषु यदि मिपः स्थाने अम् आदेशः यदि न भवति तर्हि तत्सूत्रं व्यर्थं तत्सूत्रस्य तद्दलं व्यर्थं भवति निरवकाशः भवति इति कारणेन तत् सूत्रम् अपवादसूत्रं सूत्रस्य तद्दलम् अपवादसूत्रम् अस्ति इति कारणतः तस्थस्थमिपान् तान्तन्तामः इति सूत्रात् मिप् प्रत्ययस्य अम् इति आदेशः भवति. प्रथमम् उत्तमपुरुष एकवचनस्य मिप् प्रत्ययेषु तस्य आदेशः भवति.
इतस्य सूत्रेण कार्यं भवति चेत् तत्र किं भवति मिप् इत्यत्र?
इतस्य सूत्रं कार्यं करोति चेत् प्रथमं पकारः हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति. इकारः मि इति अवशिष्यते. परन्तु इकारस्य मि इत्यस्य इकारस्य लोपः भवति इतश्च इति सूत्रेण इम् एव अवशिष्यते.
तावत्पर्यन्तं साधु एव. इत्युक्ते इतश्च इति सूत्रं पूर्वसूत्रमस्ति. तस्थस्थमिपां तान्तन्तामः इति सूत्रं परसूत्रमस्ति. अनयोः द्वयोः सूत्रयोः प्रसक्तिः अत्र मिप् इति प्रत्ययस्य प्रसङ्गे अस्ति. अत्र पूर्वपरचिन्तनं करणीयं वा विप्रतिषेधे परं कार्यम् इति सूत्रेण परत्वात् तस्थस्थमिपां तान्तन्तामः इति सूत्रं परत्वात् बलवत् भवति इति वक्तव्यं वा? नो चेत् अत्र अन्यत् चिन्तनमस्ति वा?
अत्र पूर्वसूत्रं परसूत्रम् इति कार्यं न भवति. विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति. किमर्थं चेत् तत्र सूत्रस्य तस्थमिपां तान्तं तामः इति सूत्रस्य मिपां मिप् इति दलं यदि अत्र कार्यं न करोति चेत् तत्र निरवकाशः भूत्वा व्यर्थः भवति तत् अपवादसूत्रमस्ति तस्थमिपां तान्तं तामः इतश्च इति सूत्रं तु सामान्यसूत्रमस्ति तस्थमिपां तान्तं तामः इति सूत्रं तु अपवादसूत्रं भवति अपवादबलेन तदेव सूत्रं कार्यं करोति एवं मिप् इत्यस्य कृते आदेशः भवति अम् इति आदेशः भवति तदेव
तत्तु साधुचिन्तनमेव कथं ज्ञातवान् विप्रतिषेधे परं कार्यम् इति सूत्रेण कार्यं न भवति इति कथं ज्ञायते विप्रतिषेधे परं कार्यम् इति सूत्रस्य कार्यं भवितुं तत्र कीदृशी स्थितिः अपेक्षिता भवति कीदृशी स्थितिः आवश्यकी इत्युक्ते तत् सूत्रं कुत्र कार्यं करोति
अन्यत्र लब्ध अवकाशः भवेत् चेत् तत्र इतश्च इत्यपि कार्यं कर्तुम् उद्युक्तः भवति परन्तु अत्र अन्यत्र लब्ध अवकाशः एव नास्ति किमर्थं चेत् तत्र मिप् तस्थमिपाम् इति सूत्रेषु मिप् इति दलस्य कार्यम् अन्यत्र कुत्रापि भवितुं न अर्हति यदि अत्र कार्यं न करोति चेत् तत् सूत्रमेव तद् दल सूत्रस्य तद् दलमेव व्यर्थः भवति निरवकाशः भवति इति कारणतः तत् अपवादबलेन अपवादसूत्रम् अस्ति इति कारणेन अपवादबलेन मिप् इत्यस्य स्थाने अम् इति आदेशः भवति ङित्सुलकारेषु
उत्तमम् अत्र तस्य सूत्रस्य तद्दलं व्यर्थं भवति इति उक्तवान् तस्य समीपां तान्तं तामः इति सूत्रेण कानि कार्याणि भवन्ति
तस् इत्यस्य स्थाने क्रमेण तत् इत्यस्य स्थाने ताम् इति आदेशः भवति थस् इत्यस्य स्थाने तम् इति आदेशः भवति थ इत्यस्य स्थाने त इति आदेशः भवति अम् सोरि मिप् इत्यस्य स्थाने अम् इति आदेशः भवति तस्थस्थमिपः योगे तेषाम् इति तस्थस्थमिपाम् इत्यस्य क्रमेण आदेशः भवति ताम् तम् त अम् एतेषाम् एतेषु आदेशः भवति
उत्तमम् अनेन सूत्रेण चत्वारि कार्याणि भवन्ति तस् स्थाने ताम् आदेशः थस् स्थाने तम् आदेशः था स्थाने ता आदेशः इमानि त्रीणि कार्याणि भवन्ति किन्तु मिप् विषये एव मिप् विषये अम् आदेशः इति कार्यम् अन्यत्र कुत्रापि न भवति विप्रतिषेधे परं कार्यम् इति सूत्रेण किं ज्ञायते इत्युक्ते एकस्मिन् समये एकस्मिन् स्थले सूत्रद्वयम् आगत्य कार्यं कर्तुम् उद्युक्तं भवति चेत् किं द्रष्टव्यम् द्वयोः सूत्रयोः कृते अन्यत्रान्यत्र लब्धावकाशः अस्ति वा इति द्रष्टव्यम् तस्थस्थमिपां तान्तं तामः इत्यस्मिन् सूत्रे मिप् प्रसङ्गे अम् आदेशस्य विषये अन्यत्र लब्धावकाशः नास्ति तस्य सूत्रस्य तद्दलम् उत्तमं तद्दलं पृथक्तया कार्यं कर्तुं स्वतन्त्रतया कार्यं कर्तुम् अन्यत्र मिप् प्रत्ययस्य कृते तत्र अमादेशस्य प्रसङ्गे अवकाशः अन्यत्र कुत्रापि नास्ति अतः तस्थस्थमिपां तान्तं तामः इति सूत्रस्य अपवादबलेन अत्र अमादेशः भवति मिप् इत्यत्र अमादेशः भवति न तु विप्रतिषेधे परं कार्यम् इति नियमेन परत्वात् तस्य कार्यं न भवति यद्यपि तत् सूत्रं परसूत्रमेव तथापि परत्वात् कार्यं न भवति
अपवादबलेन एव कार्यं भवति
बहु सम्यक् इतोपि किं ज्ञातव्यम् अत्र
तत्र ओके क्रमेण तस्य स्थाने तस् स्थाने तां थस् इत्यस्य स्थाने तं थ इत्यस्य स्थाने त मिप् इत्यस्य स्थाने अम् इति आदेशाः भवन्ति
सर्वेषां सिद्धप्रत्ययानां प्रसङ्गे एकवारं समग्रचिन्तनं शीघ्रं कर्तुं शक्नोति वा
तिप् मूलप्रत्ययः तिप् अस्ति तत्र नित्यं ङितः इति
तिप् प्रसङ्गे
प्रथमं नित्यं ङितः इति सूत्रेण
न न न तिप् प्रसङ्गे वदतु सिद्धप्रत्ययस्य निर्माणार्थं किं करणीयं तिप् नो चेत् इदानीं पर्यन्तं पद्मनाभमहोदय न उक्तवान् पद्मनाभन् महोदय भवान् वक्तुमिच्छति वा समग्रचिन्तनं
महोदय अत्र तिप् अस्ति तिप् अत्र पकारः संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति ति एव अवशिष्यते अत्र इतश्च इति सूत्रेण ह्रस्व प्रत्ययस्य अन्तिमे स्थितस्य इकारस्य ह्रस्व इकारस्य संज्ञा लोपः भवति अतः अत्र तकार एव अवशिष्यते अनन्तरं तस् अस्ति तस् प्रथमविभक्ति प्रथमपुरुष द्विवचने तस् अस्ति मध्यमपुरुषे द्विवचने बहुवचने तस् त अस्ति उत्तमपुरुषे मिप् अस्ति अत्र एकवचने मिप् अस्ति तेषां स्थलेषु तेषां स्थलेषु तस् तस् तामिपां क्षम्यताम् अत्र सूत्रं तस्तस्तमिपां तान् तन् तामः इति सूत्रेण तस्थाने ताम् आगच्छति तस्थाने तम् आगच्छति तस्थाने त आगच्छति मिप्स्थाने अम् आगच्छति अनन्तरं सिप् इत्यस्य
जि वदतु जि प्रथमपुरुष बहुवचनप्रत्ययः
अस्तु अस्तु जि अत्र जकारः इकारः अस्ति अत्र जोन्तः इति सूत्रेण प्रत्ययस्य अवयवस्य जकारस्य स्थाने अन्त आदेशः भवति अतः अन्तयोगः अन्ति इति भवति अत्र तु इतश्च इति सूत्रस्य प्रसक्तिः प्राप्तिः अस्ति अतः ह्रस्व अन्तिम ह्रस्व इकारस्य लोपः भवति अन्ति इति भवति अत्र संयोग अत्र नकारतकारयोगः मध्ये संयोगः अस्ति संयोग इत्युक्ते अत्र द्वयोः वञ्जनयोः मध्ये स्वरः नास्ति अत्र अन्ति इति अवशिष्यते अत्र संयोगान्तस्य लोपः इति सूत्रेण अन्ति इत्यस्य प्रत्ययस्य अन्तिमतकारस्य लोपः भवति अतः अन् एव अवशिष्यते अत्र
अग्रे
अत्र उत्तमपुरुषे एकवचने सिप् अस्ति अत्र पकारस्य हलन्त्यमिति सूत्रेण ईसंज्ञां भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति अत्रापि अत्र इतश्च इति सूत्रस्य प्राप्तिः अस्ति अतः सकार इकारयोः मध्ये अन्तिम ह्रस्व इकारस्य लोपः भवति सकार एव अत्र अवशिष्यते
सकारः एव तत्र तिष्ठति इतोपि तत्र कार्यमस्ति सिद्धप्रत्ययस्य निर्माणार्थं मध्यमपुरुषे एकवचने सकारात् परम् इतोपि कार्यद्वयमस्ति
अत्र पकारस्य हलन्त्यम् इति सूत्रेण लोपः भवति अनन्तरं सि अवशिष्यते अत्र अन्तिम इकारस्य लोपः भवति इतश्च इति सूत्रेण सकार एव अवशिष्यते अत्र
अपठः इति रूपं सिद्ध्यति
अत्र सजसुसो रुः इति सूत्रेण रुत्वं भवति अनन्तरं करावसानयोः विसर्जनीयः इति सूत्रेण विसर्गः भवति अत्र अपटः इति भवति अत्र
बहु सम्यक् इत्युक्ते ऋत्वविसर्गयोः कारणेन सकारस्य स्थाने तत्र विसर्गादेशः भवति आदौ ससजुषोरुः इति सूत्रेण ऋत्वं भवति पश्चात् रेफस्य स्थाने विसर्गादेशः भवति खरवसानयोर्विसर्जनीयः इति सूत्रेण विसर्गादेशः भवति विसर्गनिर्माणं भवति अग्रे वदतु
अनन्तरं वस् मस् एव अवशिष्यते अत्र वस् मस् इत्यस्य सकारः हलन्त्यम् इति सूत्रेण इत्संज्ञा प्रसक्तिः अस्ति परन्तु न विभक्तौ तु स्मः इति सूत्रेण सकारस्य लोपः न भवति परन्तु नित्यं नितः इति सूत्रेण ङित् लकारस्य उत्तमपुरुषस्य अन्तिम प्रत्ययस्य अन्तिमसकारस्य लोपः भवति अतः अत्र ब म एव अवशिष्यते
किमर्थं नित्यम् इति पदं स्थापितं तत्र
अत्र महोदय अत्र सूत्रमस्ति नवनवतितमं सूत्रमस्ति यद् एतत् ङित् लकारस्य पूर्वम् अस्ति विकल्पलोपेन सूत्रत्रयम् अस्ति प्रथमसूत्रं वा इति उक्तः अस्ति परन्तु तस्मात् अपरं द्वयसूत्रं वा इति अनुवृत्तिरूपेण आगच्छति एतत् सूत्रम् अत्र वा इति विकल्पेन न भवितव्यम् अतः वा इति स्थगितुम् अत्र नित्यम् इति इत्यस्य प्रयोगः कृतः अस्ति अत्र.
बहु सम्यक्. वैतोऽन्यत्र इति सूत्रात् वा इति पदम् अनुवृत्तं मा भवेत् इति अत्र आशयः अस्ति. इतोपि किं ज्ञातव्यम् अत्र? अदन्त अङ्गेषु परस्मैपदिप्रत्ययानां प्रसङ्गे लङ् सिद्धप्रत्ययानां विषये इतोपि किं ज्ञातव्यम्?
त्रीणि सूत्राणि अत्र स्मर्तव्यानि. अत्र एकमस्ति इतश्च, अनन्तरं तस्तस्तमिपां तान् तन् तामः, अनन्तरं नित्यम् इतः इति सूत्रं, द्वय त्रीणि सूत्राणि स्मर्तव्यानि.
उत्तमम्. अद्य वयं लङ् लकारे तिङ्प्रत्ययानां सिद्धिः इति विषयं समापितवन्तः. अदन्ताङ्गेषु परस्मैपदेषु विधिलिङ्लकारस्य तिङ्प्रत्ययानां सिद्धिः इति विषयः अग्रिमे सप्ताहे आरप्स्यते. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.